इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी अद्यारभ्य यूएई नेदरलैंड स्वीडन नार्वे इटलीति देशानां षड् दिवसीय यात्रायां भविष्यति। पञ्चदेश यात्रायाः प्रथमपदे अद्य श्री मोदी यूएई देशं गमिष्यति, यत्र सः राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नह्यान इत्यनेन सह मिलिष्यति। द्विपक्षीय विषयेषु विशेषतः ऊर्जा सहकार्ये तथैव परस्पर हितस्य क्षेत्रीय अन्ताराष्ट्रिय विषयेषु च द्वौ नेतारौ विचाराणाम् आदान प्रदानम् करिष्यतः। मेलनमिदम् ऊर्जा सुरक्षा विषये केन्द्रीकृतम् भविष्यति इत्यपेक्षा वर्तते। प्रधानमन्त्रिणा श्रीमोदिना प्रोक्तम् यत् अस्मिन् वर्षे भारतस्य अध्यक्षतायाम् ब्रिक्स इति बहुदेशीय संघः बहुपक्षीयतां सुदृढं कर्तुं, सतत विकासं प्रवर्धयितुं, आर्थिक शक्तिं प्रवर्धयितुं, अधिक समावेशीय विश्वव्यवस्थायाः निर्माणार्थं च मिलित्वा कार्यं करिष्यति। ह्यः नवदिल्ल्यां ब्रिक्स देशानां विदेशमन्त्रिभिः प्रतिनिधिमण्डल प्रमुखैः सह संवादं कुर्वन् श्रीमोदी अवदत् यत् उदयमानानां अर्थव्यवस्थानां मध्ये सहकार्यं प्रवर्तयितुं वैश्विक दक्षिणस्य आकांक्षाणां विकासाय च ब्रिक्स संघः महत्वपूर्ण मञ्चरूपेण उद्भूतः वर्तते। केन्द्र सर्वकारेण उक्तं यत् देशे पर्याप्तं असंस्कृत तैलस्य एलपीजी इति द्रवीकृत अनिल ईंधनस्य प्राकृतिक अनिलेंधनस्य च उपलब्धतां सुनिश्चेतुं प्रभाविपदानि गृहीतानि सन्ति। ह्यः नवदिल्ल्यां अन्तर्मन्त्रालयस्य वृत्तान्तस्य समये पेट्रोलियम प्राकृतिक अनिल मन्त्रालयस्य संयुक्त सचिव पदासीना सुजाता शर्मा अवदत् यत् देशे सर्वत्र गृहोपयोगी एलपीजी इति द्रवीकृत अनिल ईंधनस्य आपूर्तिः सुचारुरूपेण प्रचलति। नीट इति आगामी राष्ट्रिय पात्रता सहित प्रवेश परीक्षायाः सज्जतायाः परीक्षां कर्तुं समीक्षां कर्तुं केन्द्रीय शिक्षा मन्त्री धर्मेन्द्र प्रधानस्य निवासस्थाने उच्चस्तरीय सभा आयोजिता। सभायां नीट परीक्षायाः सुचारुतया कुशलतया च संचालनस्य विविध पक्षेषु विस्तृत विमर्शाः कृताः। रक्षामन्त्री राजनाथसिंहः अद्य आन्ध्रप्रदेशस्य श्री सत्यसाई मण्डलस्य पुट्टपर्ति इत्यत्र अनेक वैमानिक रक्षा परियोजनानां आधारशिला स्थापन कार्यक्रमे भागं गृहीष्यति। रक्षामन्त्रालयेन उक्तं यत् विमान विकास संस्थायाः विमान समायोजनस्य उड्डयन परीक्षण केन्द्रस्य च शिलान्यासः भविष्यति। विमानस्य एकीकरणस्य परीक्षणस्य प्रमाणीकरणस्य च एषा परियोजना उन्नत मध्यम युद्ध विमान कार्यस्य विकासं त्वरयिष्यति। केन्द्रीय ग्रामीण विकास मन्त्री शिवराज सिंह चौहानः अद्य महाराष्ट्रस्य सतारा इत्यत्र प्रधानमन्त्री ग्रामीण आवास योजनायाः लाभार्थि सम्मेलने एवं महाराष्ट्र आवास अभियान राज्यस्तरीय पुरस्कार वितरण समारोहे च भागं गृहीष्यति। उत्तरप्रदेशे विगत षट्त्रिंशत् होरासु झंझावात चक्रवात विद्युत्पातादिभिः सह अतिवृष्टिकारणात् न्यूनातिन्यूनम् एकादशोत्तर एकशतं जनाः मृताः, द्विशताधिकाः जनाः व्रणिताः सन्ति। मुख्यमंत्री योगी आदित्यनाथः जिलाधिकारीं तथा संबंधित अधिकारिणः शीघ्रतया घटनास्थलं गत्वा सर्वेक्षणं कर्तुं निर्देशं दत्तवान्। उधमपुरा मण्डलस्य शिवपार्वती तीर्थे ऐतिहासिकः त्रिदिवसीया शिवपार्वती मेला इति प्रसिद्धा वार्षिक मौंगरी मेला अद्य आरभ्यते। धार्मिकोत्साहस्य उत्सवस्य च भावनायाः मध्ये उधमपुरा मण्डल प्रशासनेन मौंगरी इत्यत्र सर दब्बर क्षेत्रे भव्य ऐतिहासिक मेलायाः सज्जता कृता वर्तते। केन्द्र सर्वकारेण सुवर्णस्य आयातस्य कृते शतं किलोग्राम परिमितस्य सीमायाः निर्धारणं कृतमस्ति। अग्रिम प्राधिकरण योजनायाः अन्तर्गतं आभूषण निर्यातकाः शून्य शुल्केन असंस्कृत वस्तूनां अथवा निवेश सामग्रीणाम् आयातं कर्तुं शक्नुवन्ति। आईपीएल इति विंशतिं प्रतिविंशतिः क्रिकेट लीग प्रतिस्पर्धायां गतरात्रौ मुंबई इंडियंस दलेन पंजाब किंग्स दलं षट् स्तोभकैः पराजितम्। अद्य सायं सार्ध सप्तवादने लखनऊ सुपर जायंट्स दलं लखनऊ नगरे चेन्नई सुपर किंग्स दलं सम्मुखीकरिष्यति इति वार्ताः।